शुद्धाः निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतम् अखिलव्याप्तम् आवेदयन्ते नानात्वस्थौल्यकार्ष्यादितु गुणज वपुस्सङ्गतोऽध्यासितं ते वह्नेः दारुप्रभेदेष्विव महदणुतादीप्तता शान्ततादि आचार्याख्याधरस्थारणि समनुमिलच्छिष्य रूपोत्तरारण्यावेधोद्भासितेन स्फुटतर परिबोधाग्निना दह्यमाने कर्मालीवासना तत्कृत तनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खलु अवस्था एवं त्वत्प्राप्तितः अन्यो न हि खलु निखिलक्लेशहानेरुपायः नैकान्तात्यन्तिकास्ते कृषिवत् अगदषाड्गुण्यषट्कर्मयोगाः दुर्वैकल्यैरकल्या अपि निगमपथाः तत्फलान्यप्यवाप्ताः मत्ताः त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्ते त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभा एवं भावेतु अधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धिबन्धं वरदा कृपणबन्धो कृपापूरसिन्धो याथार्थ्या त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान् नापरो निर्व्यथात्मा जीवन्मुक्तत्वम् एवंविधमिति वचसा किं फलं दूरदूरे तन्नाम अशुद्धबुद्धेः न च लघुमनशशोधनं भक्तितोऽन्यत् तन्मे विष्णो कृषिष्ठाः त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधः त्वदात्मा शब्दब्रह्माण्यपीह प्रयतितमनसः त्वां न जानन्ति केचित् कष्टं बन्ध्यश्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिं यस्यां विश्वाभिरामाः सकलमलहराः दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां च वाचं भ्रियासं यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन् एवञ्च अनन्यभावस्त्वदनुभजनमेव आद्रिये चैद्यवैरिन् त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिः भूयान्मे त्वत्प्रपूजा नति नुति गुणकर्मानुकीर्त्यादरोऽपि यद्यल्लभ्येत तत्तत्तव समुपहृतं देवा दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ऐक्यं ते दानहोमव्रतनियमतपःसाङ्ख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाप्रापुः आनन्दसान्द्रं भक्तेषु अन्येषु भूयस्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव द्रढय हरगदान् कृष्णा वातालयेशा ॐ तत्सदिति श्रीमन्नारायणीये चतुर्नवतितमं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।